एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। सर्वकारेण बेलायत सर्वकारात् प्राप्स्यमाणम् आसन्न त्रयोदशभि अब्जहि अष्टभि कोटिभिश्च तुल्यम् अनुदान सहयोगम् स्वीकर्तुम् निर्णीतमस्ति। मन्त्री परिषद निर्णयान् सार्वजनिक कर्तुम् ह्यः सिंहप्रासादे आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ विभिन्नानाम् परियोजनानाम् कृते बेलायत सर्वकारात् प्राप्स्यमाणम् सहयोगम् स्वीकर्तुम् निर्णीतमस्ति इति असूचयत्। एवमेव उपवेशेन श्रम न्यायालयस्य अध्यक्षपदे सुरक्षितवर्तिनः उच्च न्यायालयस्य न्यायाधीशम् जनक पाण्डेयम् नियोक्तुम् प्रहरी नायब महानिरीक्षकम् रामदत्त जोशिनम् नेपाल प्रहरिणः जनपद प्रहरी समूहस्य प्रहरी अतिरिक्त महानिरीक्षक पदे पदोन्नतिम् विधातुम् च निर्णीतमस्तीति संचार मन्त्री गुरूङ असूचयत्। मन्त्री परिषदः उपवेशेन सत्य निरूपण मेला आयोगस्य सचिवस्य उदय राज सापकोटाभिदस्य विधि न्याय संसदीय विषय मन्त्रालयस्य सचिव पदे विधि मन्त्रालयस्य सचिवस्य फणीन्द्र गौतमस्य च प्रधानमन्त्री मन्त्री परिषद कार्यालयस्य सचिव पदे स्थानान्तरयितुम् निर्णीतमस्ति इति मन्त्री गुरूङ अज्ञापयत्। प्रतिनिधि सभायाः विधि न्याय मानवाधिकार समित्या संक्रमणकालिक न्याय सम्बद्धम् विधेयकम् सर्वसम्मत्या पारिति कृतमस्ति। समितेः ह्यस्तनोपवेशेन विलोपितानाम् व्यक्तीनाम् अनुसन्धान सत्य निरूपण मेला आयोग सम्बद्धस्य एक सप्तत्युत्तर द्विसहस्रतम विक्रम वर्षीयस्य अधिनियमम् संशोधयितुम् निर्मितस्य विधेयकस्य प्रतिवेदनम् सर्वसम्मत्या स्वीकर्तुम् निर्णीतमस्ति। उपवेशे प्रस्तावमाधृत्य विहितस्य विमर्शनस्य अनन्तरम् सभापतिः विमला सुवेदी समित्या प्रतिवेदनेन सहितं विधेयकञ्च सर्वसम्मत्या पारितमिति उदघोषयत्। सभापति सुवेदी प्रतिनिधिसभायाः आगामिनि उपवेशे विधेयकस्य प्रतिवेदनस्य च प्रस्तुतेः वातावरणाय सभामुखः पत्रेणानुरुध्यते इति च असूचयत्। एतत्पूर्वं विधेयकमाधृत्य विहिते विमर्शने सांसदः विधेयकं पीडितेभ्यो जनेभ्य न्यायं प्रदातुं शक्नोतीति विलम्बं विनैव प्रतिनिधिसभातः पारितीकृत्य अग्रे सारणीयम् इत्यत्र बलम् अदुः। उपवेशे विधि न्याय संसदीय विषय मन्त्री अजय कुमार चौरसिया संक्रमणकालिक न्याय सम्बद्धे विधेयके संजातया सहमत्या सबल शान्तये सुष्ठु सन्देशो प्रदत्तः विधेयकं पीडितेभ्य न्यायं प्रदातुं च प्रस्तुतमस्तीति अभाषत। शान्ति प्रक्रिया सम्बद्धे विधेयके सहजीकरणाय संघटितेन कार्यदलेन विलोपितानाम् व्यक्तीनाम् अनुसन्धान सत्य निरूपण मेला आयोगेन सम्बद्धम् एक सप्तत्युत्तर द्विसहस्रतम विक्रम वर्षीयम् अधिनियमम् संशोधयितुम् निर्मिते विधेयके कार्यदलेन विहितया सहमत्या सहितं प्रतिवेदनम् गत बुधवासरे प्रधानमन्त्रिणे नेकपा एमाले दलस्य अध्यक्षाय च केपी शर्मा ओलीने नेपाली कांग्रेस दलस्य सभापतये शेरबहादुर देउवा विधाय नेकपा माओवादी केन्द्र दलस्य अध्यक्षाय पुष्पकमल दाहाल प्रचण्डाय च हस्तान्तरितम् आसीत्। कार्यदलेन अर्पिते प्रतिवेदने मानवाधिकारस्य गभीरोल्लंघनस्य परिभाषा मेलनस्य कृते स्वतन्त्रतया सहमतेरभावस्य घटना सशस्त्रद्वन्देन सम्बद्धः प्रभाविताः जनाः मृतानाम् आहतानाम् अपाङ्गानाम् सुरक्षाकर्मिणाम् तेषाम् परिवाराणाम् न्यूनतमस्य दण्डस्य याचना चेति मुख्यरूपेण विषयाः समाविष्टाः सन्ति। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः निगदति स्वास्थ्य क्षेत्रस्य तात्कालिकानां दीर्घकालिकानां च समस्यानां समाधानाय कार्यक्रमाः आनिष्यन्ते। राष्ट्रियसभायाः संघीयता सबलीकरण राष्ट्रिय सम्बद्धता समितेः ह्यस्तनोपवेशे स्वास्थ्य मन्त्री पौडेलः डेंगू रोगस्य विषुचिकायाश्च संक्रमणस्य उच्च संक्रमणम् आगामि भाद्र आश्विन मासम् यावत् भविष्यतीति चर्चयन् सावधानतायै सम्बद्धै सर्वै भूमिका निर्वोढव्य इति अनुरुणत्। उपवेशे सांसदः दूषित पेयजलस्य कारणेन सम्भावितस्य संक्रमण नियन्त्रणस्य कृते प्रभावपूर्णम् पूर्वकार्यम् प्रभावपूर्णा रणनीतिश्च अंगीकरणीया इत्यत्र बलम् प्रादुः। स्वास्थ्य जनसंख्या मन्त्रालयेन सर्वे सर्वकारीय कार्यालयाः मशकान् अन्विष्य नाशयतु इत्यभियानं सञ्चालयितुम् अनुरुद्धा सन्ति। मन्त्रालयेन डेंगू रोगस्य संक्रमणस्य वृद्धेरनन्तरं प्रत्येकं शुक्रवासरे सर्वकारीय कार्यालयेषु सर्वकारीयतर कार्यालयेषु चिकित्सालय परिसरेषु च स्वच्छीकरणेन सहैव मशकान् अन्विष्य नाशयतु इत्यभियानं सञ्चालयितुं सर्वेभ्य सर्वकारीय कार्यालयेभ्य अनुरुद्धमस्तीति मन्त्रालयस्य प्रवक्ता प्रकाश बुढाथोकी अशु चयत मन्त्रालयन स्वस्व कार्यालयेष् डेंगू संक्रमणस्य सतर्कताया जागरूकतायाश्च सन्दर्भे कार्यक्रमान् सञ्चालयितुमपि निर्दिष्टमस्ति। सर्वकारीय चिकित्सालयेष् डेंगू रोगस्य संक्रमितानां जनानां उपचारस्य व्यय सर्वकारेणैव विधास्यते इति च प्रवक्ता बुढाथोकी अज्ञापयत्। अस्मिन् वर्षे त्रिसप्तति जनपदानां पञ्चषष्ट्यधिक त्रिशतोत्तर द्विसहस्र जनेष् डेंगू रोगस्य संक्रमणं पुष्टीभूतमस्ति। डेंगू रोगस्य कारणेन एको जन मृत अस्ति इति स्वास्थ्य मन्त्रालयेन ज्ञापितं वर्तते। अद्य श्रावण शुक्ल पक्षस्य पञ्चम्यां तिथौ सनातन धर्मावलम्बी जनहे स्वस्व गृहे देहल्याः उपरि भागे नागानां चित्राणि संस्थाप्य नागानां पूजां विधाय नागपञ्चमी पर्व समाद्रियते। वराहपुराणस्य वचनानुसारेण नागराजेन वासुकिना सह ब्राह्मण संवादः अस्यामेव तिथौ सम्पन्न आसीत्। ततः प्रभृति तिथिरेषा नागपञ्चमी नाम्ना प्रथिता नागपूजाया कृते उपयोगिनी च मता। अस्याम् तिथौ अनन्त वासुकी पद्म महापद्म तक्षक कुलीर कर्कट शंख नामधेयानाम् अष्टानाम् नागानाम् अन्येषाम् वा प्रथितानाम् नागानाम् चित्राणि विलिख्य तेषु चित्रेषु दधि दुग्धाक्षत पुष्प दुर्वांकुराः समर्प्यन्ते। अनेन विधिना पूजितानाम् नागप्रतिमानाम् गृह देहल्याः उपरि संस्थापनेन सर्पाग्नि वज्राणाम् भयम् विनिवर्तते इति धार्मिक मान्यता विद्यते। ब्रह्मवैवर्त श्रीमद् भागवत पुराणयोः वचनानुसारेण कालीय नागेन भगवतः श्रीकृष्णस्य पदचिह्नं शिरसि धृतमित्यतः नागसन्ततयो न मारणीयाः इति विश्वासश्च जनसाधारणे व्यापृतो वर्तते। नेपाली कांग्रेस दलस्य केन्द्रीय समितेः उपवेशे ह्य सप्तानामेव प्रदेशानां सभापतिभिः स्वधारणा अभिव्यक्ता वर्तते। सानेपावर्तिनी दलस्य केन्द्रीय कार्यालय जायमाने उपवेशे नेपाली कांग्रेस दलस्य प्रदेश सभापतयः केन्द्रस्य हस्तक्षेपं प्रति असन्तोषं प्रदर्शयन्तः प्रदेश समितिम् अधिकारयुक्तां विधातुं बलम् अधु इति नेपाली कांग्रेस दलस्य प्रवक्ता डाक्टर प्रकाश शरण महत अज्ञापयत्। ह्यस्तनोपवेशे प्रदेश समितिनां सभापतिनां धारणायाः प्रस्तुतेरनन्तरं केन्द्रीय सदस्यानां मन्तव्य प्रदानस्य क्रम समारब्धोऽस्ति एवञ्च निरन्तरं विमर्शनं विधाय अस्यैव श्रावणस्य अष्टाविंशं दिवसं यावत् उपवेश समापनस्य कार्यक्रमोऽस्ति इति प्रवक्ता डाक्टर महत अज्ञापयत्। गत बुधवासरात् संचल्यमाने उपवेशे विमर्शनाय महासमितेः उपवेशात् पारिताः प्रस्तावाः राष्ट्रिय सहमतेः सर्वकार संघटन विषये जाता सहमति चेत्याद्या विभिन्नाः एकादश विषयाः प्रस्तुताः सन्ति। इति समाचारः।